Saram, dear listeners, and welcome back to the studios of Radio Sai Prashanthi Nilayam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, and the devotees are silently lined up and having a close darshan of our Lord, it's now time for us to get back to the studios to continue with the evening session of this Thursday live. And this is Team Radio Sai's Ganesh inviting you all to yet another new episode of Radio Sai Vedam Tutor. Today we shall be continuing the learning of Aruna Prashnam. And without any further delay, I hand over the mic to Praveena sir. Sai Ram.
Om Sri Sai Ram. We shall commence the session with Ganpati Prarthana Mantra chanting together.
गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ
सैरा बिफोर् वि कण्टिन्यू फ्रम् वेर् वि हेव् स्टाप्ड् लास्ट् टैम् विल् just revise once what we had done last session. We'll start chanting together from the 15th paragraph, that is Ati Tamrani Vasa Gumsi. We'll chant the Samhita part of it. Chant together. We'll chant together. We'll chant even the Shanti Mantra for this, that is Bhadram Karanebi. Then we'll go for the paragraph starting.
भद्रं कर्णेभिश्रुणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुं सस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः अतिताम्राणि वासागुंसे अष्टिवज्रिषदग्निचा विश्वे देवा विप्रहरन्ते अग्निजिह्वा असस्यता नैव देवो न मर्त्यः न राजा वरुणो विभुः नाग्निर्नेन्द्रो न पवमानः मातृक्च न विद्यते दिव्यस्यैका धनुरात्रिः पृथिव्यामपराश्रिता तस्येन्द्रो वम्रिरूपेण धनुर्जामचिरत् स्वयम् तदिन्द्रधनुरित्यज्यम् अभ्रवर्णेषु चक्षते एतदेव शय्योर्बारहस्पत्यस्य एतद्रुद्रस्य धनुः रुद्रस्य त्वेव धनुरात्रिः शिर उत्पिपेशा सप्रवर्ग्यो भवत् तस्माद्यः सप्रवर्गेण यज्ञेन यजते रुद्रस्य शशिरः प्रतिदधाते नैनगुं रुद्र आरुको भवति य एवं वेदा अत्योर्ध्वाक्षोतिरश्चात् शिशिरः प्रदृश्यते नैव रूपं न वा सागुंसे न चक्षुः प्रतिदृश्यते अन्योन्यन्तु न हि दुःस्रातः सतस्तद्देव लक्षणम् लोहितोक्ष्णिशारशीर्ष्णिः सूर्यस्योदयनम् प्रति त्वम् करोष्यन्यञ्जलिकाम् त्वम् करोषि निजानुकाम् निजानुकामेऽन्यञ्जलिका अमीवाचमुपासतामिति तस्मै सर्वऋतवो नमन्ते मर्यादाकरत्वात् प्रपुरोधाम् ब्राह्मण आप्नोति य एवम् वेदा स खलु संवत्सर एतैः सेनानीभिः सह इन्द्राय सर्वान् कामानभिवहति सद्रप्सः तस्यैषा भवति अवद्रप्सो अगुंशुमते मतिष्ठत् यान कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रस्य च्याधमन्तम् उपस्नुहितम् नृमणामथद्रामिते एतयैवेन्द्रः सला भृत्या सह असुरान् परिवृश्यते पृथिव्यगुंशुमते तामन्वस्थितः संवत्सरो दिवम् च नैवम् विदुषाचार्यान्ते वासिनौ अन्योन्यस्मै द्रुह्याताम् यो द्रुह्यते भ्रश्यते स्वर्गालोकात् इत्र्यतु मण्डलानि सूर्यमण्डलान्याख्यायिकाः अत ऊर्ध्वगुं स निर्वचनाः
प्लीज रिपीट आफ्टर मी ट्वाइस आरोगो भ्राजः पटरः पतङ्गः
आरोगो भ्राजः पटरः पतङ्गः आरोगो भ्राजः पटरः पतङ्गः
स्वर्णरो ज्योतिषीमान् विभासः
स्वर्णरो ज्योतिषीमान् विभासः स्वर्णरो ज्योतिषीमान् विभासः
ते अस्मै सर्वे दिवमातपन्ति
ते अस्मै सर्वे दिवमातपन्ति ते अस्मै सर्वे दिवमातपन्ते
ऊर्जं दुहाना अनपस्फुरन्त इति
ऊर्जं दुहाना अनपस्फुरन्त इति ऊर्जं दुहाना अनपस्फुरन्त इति
कश्यपोष्टमः
कश्यपोष्टमः कश्यपोष्टमः
समहामेरुन्न जहाति
समहामेरुन्न जहाति समहामेरुन्न जहाति
तस्यैषा भवति
तस्यैषा भवति तस्यैषा भवति
यत्ते शिल्पम्
यत्ते शिल्पम् यत्ते शिल्पम्
कश्यपरोचनावत्
कश्यपरोचनावत् कश्यपरोचनावत्
ते शिल्पम् कश्यपरोचनावत्
यत्ते शिल्पम् कश्यपरोचनावत् यत्ते शिल्पम् कश्यपरोचनावत्
इन्द्रियावत् पुष्कलम् चित्रभानो
इन्द्रियावत् पुष्कलम् चित्रभानो इन्द्रियावत् पुष्कलम् चित्रभानो
यस्मिन् सूर्या अर्पिता सप्तसाकम्
यस्मिन् सूर्या अर्पिता सप्तसाकम् यस्मिन् सूर्या अर्पिता सप्तसाकम्
तस्मिन् राजानमधि
तस्मिन् राजानमधि तस्मिन् राजानमधि
विश्रयेममिति
विश्रयेममिति विश्रयेममिति
तस्मिन् राजानमधि विश्रयेममिति
तस्मिन् राजानमधि विश्रयेममिति तस्मिन् राजानमधि विश्रयेममिति
ते अस्मै सर्वे
ते अस्मै सर्वे te asmai sarve
kashyapat jyotirlabhante
kashyapat jyotirlabhante kashyapat jyotirlabhante
te asmai sarve kashyapat jyotirlabhante
te asmai sarve kashyapat jyotirlabhante te asmai sarve kashyapa jyotirlabhante
tan somah kashyapa dadhi nirdhamate
tan somah kashyapa dadhi nirdhamate tan somah kashyapa dadhi nirdhamate
brahasta karma kriti vaivam
brahasta karma kriti vaivam brahasta karma kriti vaivam
prano jivani indriya jivani
prano jivani indriya jivani prano jivani indriya jivani
सप्तशीर्षण्याः प्राणाः
सप्तशीर्षण्याः प्राणाः सप्तशीर्षण्याः प्राणाः
सूर्या इत्याचार्याः
सूर्या इत्याचार्याः सूर्या इत्याचार्याः
अपश्यमहमेतान्
अपश्यमहमेतान् अपश्यमहमेतान्
सप्तसूर्यानिते
सप्तसूर्यानिते सप्तसूर्यानिते
अपश्यमहमेतान् सप्तसूर्यानिते
अपश्यमहमेतान् सप्तसूर्यानिते अपश्यमहमेतान् सप्तसूर्यानिते
पञ्चकर्णो वात्स्यायनः
पञ्चकर्णो वात्स्यायनः पञ्चकर्णो वात्स्यायनः
सप्तकर्णश्च प्राक्षिः
सप्तकर्णश्च प्राक्षिः सप्तकर्णश्च प्राक्षिः
आनुश्रविक एव नौ
आनुश्रविक एव नौ आनुश्रविक एव नौ
कश्यप इति
कश्यप इति कश्यप इति
आनुश्रविक एव नौ कश्यप इति
आनुश्रविक एव नौ कश्यप इति आनुश्रविक एव नौ कश्यप इति
उभौ वेदयिते
उभौ वेदयिते उभौ वेदयिते
नहि शेकुमिव
नहि शेकुमिव नहि शेकुमिव
महामेरुं गन्तुम्
महामेरुं गन्तुम् महामेरुं गन्तुम्
नहि शेकुमिव महामेरुं गन्तुम्
नहि शेकुमिव महामेरुं गन्तुम् नहि शेकुमिव महामेरुं गन्तुम्
अपश्यमहमेतत्
अपश्यमहमेतत् अपश्यमहमेतत्
सूर्यमण्डलम्
सूर्यमण्डलम् सूर्यमण्डलम्
परिवर्तमानम्
परिवर्तमानम् परिवर्तमानम्
अपश्यमहमेतत् सूर्यमण्डलम् परिवर्तमानम्
अपश्यमहमेतत् सूर्यमण्डलम् परिवर्तमानम् अपश्यमहमेतत् सूर्यमण्डलम् परिवर्तमानम्
गार्ग्यः प्राणत्रातः
गार्ग्यः प्राणत्रातः गार्ग्यः प्राणत्रातः
गच्छन्तमहामेरुम्
गच्छन्तमहामेरुम् गच्छन्तमहामेरुम्
एकम् चाजहतम्
एकम् चाजहतम् एकम् चाजहतम्
भ्राजपटरपतङ्गानिहने
भ्राजपटरपतङ्गानिहने भ्राजपटरपतङ्गानिहने
तिष्ठन्नातपन्ति
तिष्ठन्नातपन्ति तिष्ठन्नातपन्ते
तस्मादिह तप्त्रितपाः
तस्मादिह तप्त्रितपाः तस्मादिह तप्त्रितपाः
Now we'll chant from the Arogo Braja Padara Patanga. We'll chant together the Samhita part.
Arogo Braja Padara Patangaha Swarnaro Jyotishi Mana Vibhasaha Te Asmai Sarve Diva Mata Pante Urjam Duhana Anamasuranta Hite Kashyaposhtamaha Samaha Merum Najahate Tasyaisha Bhavate Yatte Shilpam Kashyaparoshanavat Indriyavat Pushkalam Chitrabhano Yasmin Surya Arpita Sapta Sakam Tasmin Raja Namati Vishraye Mamite Te Asmai Sarve Kashyapa Jyotirlabhante Tan Somah Kashyapa Dadinirdhamate Brasta Karma Kruti Vaivam Prano Jivani Indriya Jivani Sapta Shirshanya Prana Surya Itya Charya Apashyamahametan Sapta Surya Nite Panchakarno Vatsyayanaha Sapta Karnascha Plakshihi Anushravika Evanau Kashyapa Ite Ubhau Vedayite Nahishekumiva Mahamerum Dandum Apashyamahametat Surya Mandalam Parivartamanam Gargya Pranatrataha Gacchanta Mahamerum Ekam cha jahatam Braja patara patanga nihane Tishthannata pante Tasmadihata pritapah
Please repeat after me twice from here. Amutretare
Amutretare Amutretare
Tasmadihata pritapah
Tasmadihata pritapah Tasmadihata pritapah
Teshamesha bhavate
Teshamesha bhavate Teshamesha bhavate
Sapta Surya Divamanupravishtah
Sapta Surya Divamanupravishtah Sapta Surya Divamanupravishtah
Tananveti Patibhirdakshinavan
Tananveti Patibhirdakshinavan Tananveti Patibhirdakshinavan
Te Asmai Sarve
Te Asmai Sarve Te Asmai Sarve
Ghritamata Pante
Ghritamata Pante Ghritamata Pante
Te Asmai Sarve Ghritamata Pante
Te Asmai Sarve Ghritamata Pante Te Asmai Sarve Ghritamata Pante
Ujanduhana Anapaspuranta Ite
Ujanduhana Anapaspuranta Ite Ujanduhana Anapaspuranta Ite
Saptatvijasurya Ityacharyah
Saptatvijasurya Ityacharyah Saptartvija Surya Ityacharya
Saptartvija Surya Ityacharya
Saptartvija Surya Ityacharya
Teshamesha Bhavate
Teshamesha Bhavate Teshamesha Bhavate
Saptadisho Nana Suryah
Saptadisho Nana Suryah Saptadisho Nana Suryah
Saptahotara Ritvijah
Saptahotara Ritvijah Saptahotara Ritvijah
Deva Aditya E Saptah
Deva Adityaye Sapta Deva Adityaye Sapta
तेभिः सोमाभिरक्षणहिते
तेभिः सोमाभिरक्षणहिते तेभिः सोमाभिरक्षणहिते
तदप्याम् नायः
तदप्याम् नायः तदप्याम् नायः
तदप्याम् नायः
तदप्याम् नायः तदप्याम् नायः
दिग्भ्राजऋतून् करोति
दिग्भ्राजऋतून् करोति दिग्भ्राजऋतून् करोति
एतयैवावृता
एतयैवावृता एतयैवावृता
सहस्रसूर्यताय
सहस्रसूर्यताय सहस्रसूर्यताय
इति वैशम्पायनः
इति वैशम्पायनः इति वैशम्पायनः
एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः
एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः
तस्यैषा भवति
तस्यैषा भवति तस्यैषा भवति
यद्याव इन्द्रते शतगुं शतं भूमिः
यद्याव इन्द्रते शतगुं शतं भूमिः यद्याव इन्द्रते शतगुं शतं भूमिः
उत स्युः
उत स्युः उत स्युः
नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः नत्वा वज्रं सहस्रगुं सूर्याः
अनुनजातमष्ट
अनुनजातमष्ट अनुनजातमष्ट
रोदसे इति
रोदसे इति रोदसे इति
अनुनजातमष्ट रोदसे इति
अनुनजातमष्ट रोदसे इति अनुनजातमष्ट रोदसे इति
नानालिङ्गत्वाद्धृतूनाम्
नानालिङ्गत्वाद्धृतूनाम् नानालिङ्गत्वाद्धृतूनाम्
नानासूर्यत्वम्
नानासूर्यत्वम् नानासूर्यत्वम्
नानालिङ्गत्वाद्धृतूनान्नानासूर्यत्वम्
नानालिङ्गत्वाद्धृतूनाम् नानासूर्यत्वम्
अष्टौ तु व्यवसिता इति
अष्टौ तु व्यवसिता इति अष्टौ तु व्यवसिता इति
सूर्यमण्डलान्यष्टात ऊर्ध्वम्
सूर्यमण्डलान्यष्टात ऊर्ध्वम् सूर्यमण्डलान्यष्टात ऊर्ध्वम्
तेषामेषा भवति
तेषामेषा भवति तेषामेषा भवति
चित्रम् देवानामुदगादनीकम्
चित्रम् देवानामुदगादनीकम् चित्रम् देवानामुदगादनीकम्
चक्षुर्मित्रस्य वरुणस्याग्नेः
चक्षुर्मित्रस्य वरुणस्याग्नेः चक्षुर्मित्रस्य वरुणस्याग्नेः
आप्राद्यावा पृथिवी अन्तरिक्षम्
आप्राद्यावा पृथिवी अन्तरिक्षम् आप्राद्यावा पृथिवी अन्तरिक्षम्
सूर्य आत्मा
सूर्य आत्मा सूर्य आत्मा
जगतस्तुषश्चेते
జగతస్తస్తుషశ్చేతి జగతస్తస్తుషశ్చేతి
సూర్య ఆత్మా జగతస్తస్తుషశ్చేతి
సూర్య ఆత్మా జగతస్తస్తుషశ్చేతి సూర్య ఆత్మా జగతస్తస్తుషశ్చేతి
I think before we wind up, we'll once chant these four paragraphs. They're starting from Amutretare. We'll chant together the Samhita part of it.
Amutretare tasmadiha taptritapah teshamesha bhavate saptasuryadivamanupravishtah tananveti pativirdakshidavan తే అస్మై సర్వే ఘృతమాత పంతే ఊర్జం దుహానా అనపస్ఫురంత హితే సప్తర్ద్విజ సూర్య ఇత్యాచార్యాః తేషామేషా భవతే సప్త దిశో నానా సూర్యాః సప్త హోతార ఋత్విజః దేవా ఆదిత్యాయే సప్త తేభిః సోమాభిరక్షణ హితే తదప్యాం నాయః దిగ్భ్రాజరుతోన్ కరోతి ఏతయైవావృతా సహస్రసూయతాయా ఇతి వైషం పాయనః తస్యైషా భవతి యద్యావ ఇంద్రతే శతగుం శతం భూమీః ఉత స్యుః నత్వా వజ్రిన్ సహస్రగుం సూర్యాః అనునజాతమష్టరోదసీ ఇతి నానాలింగత్వా ధృతూనాన్నానా సూర్యత్వం అష్టౌతవ్యవసితా ఇతి సూర్యమండలాన్యష్టాత ఊర్ధ్వం తేషామేషా భవతి చిత్రం దేవానాముదగాదనీకం చక్షుర్మిత్రస్య వరుణస్యాగ్నే ఆప్రాజ్యావా పృథివీ అంతరిక్షం సూర్య ఆత్మా జగతస్తస్తుషశ్చేతి భద్రం కర్ణే విశృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైస్తుష్టువాగుంసస్తనూభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దహాతు ఓం శాంతి శాంతి శాంతిః యదక్షర పరబ్రహ్మం మాత్రా హీనం తు యద్భవేత్ తత్సర్వం క్షమ్యతాం దేవా నారాయణ నమోస్తుతే విసర్గ బిందు మాత్రాణి పద పాదాక్షరాణి చ న్యూనాని చాతిరిక్తాని క్షమస్వసా ఈశ్వరా అపరాధ సహస్రాణి క్రియంతే హర్నిషన్మయా దాసోయమితి మాం మత్వా క్షమస్వసా ఈశ్వరా అన్యథా శరణం నాస్తి త్వమేవ శరణం మమ తస్మాత్ కారుణ్య భావేన రక్ష రక్షసా ఈశ్వరా హరిః ఓం తత్సత్ శ్రీ సాయీశ్వరార్పణమస్తు
With this, we come to an end to this week's Radio Sai Vedam Tutor. In the coming session, we shall continue with the learning of Aruna Prashnam. Now it's time for us to go to the next segment, that is the Radio Sai Bhajan Classroom, hosted by Brother Bishu. Sai Ram, happy listening. Over to Brother Bishu.